प्राकृत धर्मानाश्रयम् अप्राकृत निखिल धर्म रूपमिति निगम प्रतिपाद्यम् यत्तच्छुद्धम् सात्कृते स्तौमि कलिकालतमच्छन्न दृष्टित्वाद्विदुषामपि सम्प्रत्य विषयस्तस्य माहात्म्यम् समभूद्भुवि दयया निजमाहात्म्यम् करिष्यन् प्रकटम् हरिः वाण्या यदा तदा स्वास्यम् प्रादुर्भूतम् चकारहि तदुक्तमपि दुर्बोधम् सुबोधम् स्याद्यथा तथा तन्नामाष्टोत्तरशतम् प्रवक्ष्याम्यखिलागहृत् ऋषिरग्निकुमारस्तु नाम्नान् छन्दो जगत्यसौ श्रीकृष्णास्यम् देवता च बीजम् कारुणिकः प्रभुः विनियोगो भक्तियोगः प्रतिबन्धविनाशने कृष्णाधरामृतास्वाद सिद्धिरत्र न संशयः आनन्दः परमानन्दः श्रीकृष्णाच्यम् कृपानिधिः दैवोद्धार प्रयत्नात्मा श्रुतिमात्रातिनाशनः श्रीभागवत गूढार्थ प्रकाशन परायणः साकार ब्रह्मवादेकः स्थापको वेद परागः मायावाद निराकर्ता सर्ववादि निरासकृत् भक्तिमार्गाब्जमातण्डः श्रीशूद्राद्युद्धृति क्षमः अङ्गीकृत्यैव गोपीश वल्लभीकृतमानवः अङ्गीकृतौ समर्यादो महाकारुणिको विभो अधेयदानदक्षश्च महोदारचरित्रवान् प्राकृतानुकृतैर्व्याज मोहितासुरमानुषः वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम् जनशिक्षा कृते कृष्णः भक्तिकृन्निखिलेष्टदः सर्वलक्षणसम्पन्नः श्रीकृष्णज्ञानदो गुरुः स्वानन्दतुन्दिलः पद्मदलायत विलोचन कृपादृग्दृष्टिसंहृष्ट दासदासी प्रियः पतिः रोषदृक्पात सम्प्लुष्ट भक्तद्वित् भक्तसेवितः सुखसेव्यो दुराराध्यो दुर्लभाम् घृतरोरुह उग्रप्रतापो वाप्सीधु पूरिता शेष सेवकः श्री भागवत पीयूष समुद्र मथन क्षमः तत्सार भूत रास श्री भाव पूरित विग्रह सान्निध्य मात्र दत्त श्री कृष्ण प्रेमा विमुक्तिदः रासलीलै तात्पर्यः उपयै तत्कथा प्रदः विरहानुभवैकार्थ सर्वत्यागोपदेशकः भक्त्याचारोपदेशाच कर्म मार्ग प्रवर्तकः यागादौ भक्तिमार्गैक साधनत्वोपदेशकः पूर्णानन्दः पूर्णकामो वाक्पतिर्विभुतेश्वरः कृष्णनाम सहस्रस्य भक्ता भक्तपरायणा भक्त्याचारोपदेशार्थ नानावाक्यनिरूपकः स्वार्थोज्झिताखिल प्राण प्रियतादृशवेष्टितः स्वदासार्थ कृताशेष साधनः सर्वशक्तिदृक् भूविभक्ति प्रचारैक कृते स्वान्व यकृत्पिता स्ववंशे स्थापिताशेष स्वमाहात्म्यः स्मयापः पतिव्रता पतिः पार लौकिकैकदानकृत् निगूढहृदयोऽनन्य भक्तेषु ज्ञापिताशयः उपासनादिमार्गाति मुग्धमोहनिवारकः भक्तिमार्गे सर्वमार्ग वैलक्षण्यानुभूतिकृत् पृथक्शरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् प्रतिक्षणनिकुञ्जस्थ लीलारससुपूरितः तत्कथाक्षिप्तचित्तस्थ विस्मृतान्यो व्रजप्रियः प्रियव्रजस्थितिपुष्टि लीलाकर्तारः प्रियः भक्तिच्छापूरकः सर्वा ज्ञातलीलोऽतिमोहनः सर्वासक्तो भक्तमात्रा सक्तः पतितपावनः स्वयशोगानसंहृष्ट हृदयाम्भोजविष्टरः यश पीयूषलहरी प्लावितान्यरसः परः लीलामृतरसाद्राद्री कृताखिलशरीर धृत् गोवर्धन् स्थित्युसाहः तल्लीला प्रेम पूरितः यज्ञभोक्ता यज्ञकर्ता चतुर्वर्ग विशारदः सत्यप्रतिज्ञस्त्रिगुणातीतो नय विशारदः स्वकीर्तिवर्धनतत्त्व सूत्रभाष्यप्रदर्शकः मायावादाख्यतुलाग्निर्ब्रह्मावादनिरूपकः अप्राकृताखिला कल्प भूषितः सहज स्मितः त्रिलोकी भूषणं भूमि भाग्यं सहज सुंदरः अशेष भक्त संप्रार्थ्य चरणाब्जरजो धनः इत्यानन्द निधेः प्रोक्तम् नाम्नामष्टोत्तरं शतम् श्रद्धा विशुद्ध बुद्धेयः पठत्यनुदिनं जनः सतदेकमनः सिद्धि मुक्तां प्राप्नोत्य संशयः तदप्राप्तौ वृथा मोक्षस्त प्राप्तौ तद्गतार्थता अतः सर्वोत्तमं स्तोत्रं जप्यं कृष्णरसार्थिभिः।